मम सर्वेभ्यः अद्य शिक्षामार्गस्य षोडशः पाठः अक्टोबर् मासस्य विंशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशिरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो प्रायः एकः मासः अतीतः गतवर्गानन्तरं सुदीर्घकालस्य विरामः पुनः किम् अधीयानाः आस्म इति किञ्चित् पुनरावर्तनं कुर्मः. विसर्गसन्धेः अध्ययनं गतवर्गे अस्माभिः आरब्धम्. विसर्गसन्धौ कति प्रकाराः सन्ति इति ज्ञातवन्तः. तथैव विसर्गस्य उत्वम् उकारादेशः कदा भवति इति नियमानपि दृष्टवन्तः. काव्यांशेषु सुभाषितानाम् अध्ययनं प्रचलति, यत्र सुभाषितद्वयस्य अध्ययनं गतवर्गे कृतम्. शास्त्राण्यधीत्यापि भवन्ति मूर्खाः आयत्यां गुणदोषज्ञः इति. अद्य आदौ व्याकरणांशान् पश्यामः. तत्र विसर्गसन्धिः, विसर्गस्य उकारादेशः कुत्र भवति? ह्रस्वः अकारः, ह्रस्व अकारात् परं विसर्गः अह इति भवति. तस्मात् परतः ह्रस्व अकारे मृदुव्यञ्जने वा परे. यत्र विसर्गात् पूर्वं ह्रस्वः अकारः भवति, विसर्गाद् अनन्तरं ह्रस्व अकारः अथवा मृदुव्यञ्जनं भवति. तत्र विसर्गस्य स्थाने उकारः आदेशः भवति. उकारादेशानन्तरं पूर्वं विद्यमानेन अकारेण सह गुणसन्धिः अपि भवति. अग्रे अकारः अस्ति चेत् पूर्वरूपसन्धिः भवति, यथा अह अ इत्यस्ति. अत्र विसर्गस्य उकारादेशः रामः अपि इति उदाहरणं. तत्र विसर्गस्य उकारे कृते अ उ अ इति भवति. राम उ अपि. इदानीम् अ उ अकार उकारयोः गुणेन ओकारः भवति. सो रामो अपि पदान्तस्य ओकारस्य अकारे परे पूर्वरूपसन्धिः भवति. ओ प्लस् अ ओ, अतः रामोऽपि इति रूपं भवति. सो विसर्गस्य उकारादेशः भवति, ततः परं गुणः पूर्वरूपं च. एतत्तु ह्रस्व अकारे परे भवति. मृदुव्यञ्जने परतः गुणः भवति, पूर्वरूपं न भवति. अह इत्यस्य मृदुव्यञ्जने परतः रामः गच्छति इत्यस्ति. सो विसर्गस्य उकारः भवति अ उ. सो राम उ गच्छति. अकारस्य उकारे परे गुणः ओकारः. सो रामो गच्छति. अत्र पूर्वरूपसन्धेः अवकाशः नास्ति. पूर्वरूपसन्धिः ह्रस्वाकारे परे एव भवति इत्यतः पूर्वरूपम् अत्र नास्ति. अयं विसर्गस्य उकारादेशः. तत्र अभ्यासे केचन प्रश्नाः दत्ताः, ये उत्तरं वक्तुमिच्छन्ति हस्तम् उन्नयन्तु.
अविनाश वैद्य फर्स्ट वृक् ఇక్షః ప్లస్ అత్ర, సో ఇట్ విల్ బికమ్ రుక్ష ప్లస్ ఉ ప్లస్ అత్ర, సో రుక్షో అత్ర, దెన్ ఇట్ విల్ బికమ్ రుక్షో అత్ర.
ఫైనల్ ఆన్సర్
వృక్ష అత్ర, అత్ర దట్ అ విల్ బికమ్ స్మాల్ అ విత్ దట్ ఎస్ సైన్.
వృక్షోచ్చారణం భవతి వృక్షోత్ర,
వృక్షోత్ర. ఓకే,
సో వృక్ష అత్ర వృక్షోత్ర
వృక్షోత్ర.
ధర్మ రక్షతి,
ధర్మ రక్షతి, ధర్మో ధర్మ ఉ ప్లస్ రక్షతి, ధర్మో రక్షతి.
సమ్యక్, సో ధర్మో రక్షతి. ధన్యవాదః లతా శేఖరన్.
తతః అభయం, తతో తతో భయం. ఆఫ్టర్
సో తతో భయం, సో తతః అభయం, సో తతో అభయం, తతో భయం ఇది భవతి. ఓకే,
మనోవేగః, మనః వేగః, మనోవేగః.
సమ్యక్, మనః వేగః, మనోవేగః. సమ్యక్, సో మకారే పరే గుణసంధిః ఏవ భవతి. జస్ట్ వన్ మోమెంట్. లలితా సింగ్,
నమస్కారం. కృతః అకృతః, సో అ అండ్ ఉ విల్ బికమ్ ఓ, సో కృతో అండ్ విత్ ద ఎస్ సైన్ కృతః,
కృతో కృతః,
కృతో కృతః.
అవగ్రహస్య ఉచ్చారణం న కర్తవ్యం, తద్ అస్తి వా న వా చింతా నాస్తి. ఉచ్చారణం తు కృతో కృతః ఇత్యేవ.
Yes, so what do you call the S sign? You know the S sign in between?
So it just indicates that there was an akara there, and that S sign is a fairly modern invention. Actually, in the earlier manuscripts, if you see, that is not there. They just write the okara. And pronunciation also only the okara.
So when I am saying, instead of telling you with S sign, I can just say krito kritah.
Right.
Okay.
Krito kritah. Next one.
Balah apashyat. So it will be balo with S sign pashyat.
బాలోపశ్యత్, సో బాలః అపశ్యత్, బాలోపశ్యత్.
నమస్తే. ఆచార్యః ప్లస్ వదతి, ఆచార్యో వదతి.
సమ్యక్, ఆచార్యో వదతి.
నమః ప్లస్ అస్తు, నమోస్తు పూర్వరూపం.
పూర్వరూపం భవతి. సమ్యక్, ధన్యవాదః. నమః అస్తు, సో నమో అస్తు, నమోస్తు. రామానుజన్.
నమస్తే. రాగః ప్లస్ సారీ రోగః ప్లస్ జాయతే, రోగో జాయతే.
రోగో జాయతే. సమ్యక్.
దాసః ప్లస్ అస్మి, దాసోస్మి. विद्यावग्रह
दासोऽस्मि सम्यक् अग्रे केचन श्लोकाः अथवा काश्चन सूक्तयः दत्ताः तेषु सन्धिविच्छेदः कर्तव्यः सीतानारायण
अहिंसा परमो धर्मः अहिंसा परमः धर्मः
परमः धर्मः परमो धर्मः सो अहिंसा परमः धर्मः सो परमः अत्यन्तं श्रेष्ठः धर्मः का भवति अहिंसा
कोऽतिभारः समर्थानां कः अतिभारः समर्थानां
कः अतिभारः सो समर्थानां येषां वस्तुतः सामर्थ्यमस्ति कार्यं साधयितुं ये शक्ताः अथवा शक्तिमन्तः अत्र येषां दैहिकं बलम् अस्ति तेषाम् अतिभारः कः सो अत्यन्तं भारयुक्तं वस्तु अपि ते उन्नेतुं शक्नुवन्ति इति श्लोकस्य भागः एषः कोटिभारसमर्थानां किं दूरं व्यवसायिनां को विदेशसुविद्याय सुविद्यानां कः परः प्रियवादिनाम् इति सुभाषितमस्ति कोटिभारः समर्थानां किं दूरं व्यवसायिनां ये श्रमम् ऊढ्वा कार्यं कुर्वन्ति तेषां किं दूरं बहु दूरे अस्ति चेदपि ते गन्तुं शक्नुवन्ति को विदेशः सुविद्यानां येषां विद्या सम्यक् विद्या यैः प्राप्ता अस्ति तेषां कः विदेशः सर्वेषु देशेषु ते सत्तां वासं कर्तुं शक्नुवन्ति तत्र विद्याबलेन ते वसन्ति अत एव विद्वान् सर्वत्र पूज्यते इति उच्यते किल तथा सो को विदेशसुविद्यानां कः परः प्रियवादिनां प्रियं ये वदन्ति ये सम्यक् भाषणं कुर्वन्ति तेषां कः परः अन्यः मित्रं न इति न भवत्येव सर्वैः सह बहु शीघ्रमेव मैत्रीं सम्पादयन्ति इत्यर्थः अस्तु अग्रे गच्छामः वेणु
नमस्कार भगिनि इतः प्लस् भ्रष्टः ततः प्लस् भ्रष्टः
इतः भ्रष्टः ततः भ्रष्टः इतः अत्रापि नास्ति तत्रापि नास्ति इत्यर्थः इतः इदानीम् एकस्मिन् कार्ये अस्ति एतत् त्यक्त्वा अन्यत् कार्यं प्राप्तुं गतवान् किन्तु तदपि न लब्धं तदा किमुच्यते इतो भ्रष्टः ततो भ्रष्टः त्रिशङ्कुस्थितिः इव अत्रापि गतिः नास्ति तत्रापि नास्ति उभयत्र क्लेशः इति सूचयति सो इतः भ्रष्टः ततः भ्रष्टः
सर्वतः प्लस् अस्तु
मे अस्तु
मे
सर्वतः मे अस्तु सो सर्वतः मे सर्वतो मे तत्र विसर्गसन्धिः मे अस्तु मेऽस्तु इत्यत्र पूर्वरूपसन्धिः सो सर्वतः सर्वासु दिक्षु इत्यर्थः सो आल् अराउण्ड् सो मम सर्वासु दिक्षु मां परितः सर्वत्र संस्कृतं भवतु इत्यर्थः धन्यवादः अन्ये केऽपि राजेश्वरी न श्रूयते
नूनं सुभाषित रसः अन्य रसादिशायि
नूनं
नूनं सुभाषितः सुभाषित रसः अन्य रसादिशयो दिशायै
रसातिशायि सुभाषित रसः अन्य
ओके
सम्यक् सो नूनं सुभाषित रसः सो सुभाषितस्य बाधः अन्य रस अतिशायि अन्य अन्येषां सर्वेषामपि स्वादम् अतिशेते सो तदपेक्षया बहु मधुरं भवति इत्यर्थः
उपकारः अपि नीचः नामः अपकारो हि जायते
अपकारो हि जायते
उपकारः प्लस् अपि नीचानाम् अपकारो हि जायते
अपकारो हि तत्र कथं छेदः
अपकारः प्लस् हि
अपकारः हि जायते उपकारः अपि नीचानाम् अपकारः हि जायते सो उभयत्रापि विसर्गसन्धिः नीचानाम् उपकारः अपि सो ये दुष्टाः तेषां वयम् उपकारं कर्तुं क्षम्यतां ये दुष्टाः ते अस्माकम् उपकारं कर्तुं प्रयतन्ते चेदपि अथवा उपकारं कुर्मः इत्युक्त्वा यत् कुर्वन्ति तेन अस्माकं क्लेशः एव भवति अपकारः हि जायते अन्ये केऽपि वक्तुम् इच्छन्ति ये न उक्तवन्तः सरलमेव अस्ति निसर्गसन्धि शारदगोपालन्
अतः पुत्रेण जातेन यः न विद्वान् न भक्तिमान्
कोऽर्थः इत्यत्र कः अर्थः कोऽर्थः यो न यः न कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् सो पुत्रः सः विद्वान् अर्थात् सम्यक् अधीत्य अथवा सद्गुणी भूत्वा सर्वत्र यशः प्राप्नुयात् अथवा भक्तिमान् पितृषु भक्तिं कृत्वा तेषां तयोः सेवां कुर्यात् उभयं नास्ति चेत् किं प्रयोजनम् सो कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान्
कः वेदः
ऋग्वेदः
ओ सारि ऋग्वेदः अथ यजुर्वेदः सामवेदः हि अथर्वणः
हि अथर्वणः ह्यथर्वणः सम्यक् सो वेदानां नामानि उच्यन्ते तावदेव सो ऋग्वेदः अथ यजुर्वेदः सामवेदः हि अथर्वणः इति चत्वारः वेदाः उषा पि
श्रूयते वा
श्रूयते
कश्यपः अत्रिः भरद्वाजः विश्वामित्रः अथ गौतमः कश्यपः
अग्रे
वामदेवः वसिष्ठः च मुनयः
सम्यक् सो अत्र सप्तर्षीणां नामानि उच्यन्ते अनेन श्लोकेन अस्तु कश्यपः अत्रिः कश्यपोत्रिः भरद्वाजः विश्वामित्रः अथ तो भरद्वाजो विश्वामित्रोऽथ तो वामदेवः वसिष्ठः वामदेवो वसिष्ठः सो सर्वत्र विसर्गसन्धिः अस्ति सो अग्रिमश्लोकः उषा भगिनी भवति एव
श्रुतिः क्षमा दमः अस्तेयं शौचम् इन्द्रियनिग्रहः अनन्तरं धीर्विद्या सत्यमक्रोधः दशकं धर्मलक्षणम्
सम्यक्
धन्यवादः
दशकं धर्मलक्षणं धर्मस्य दश लक्षणानि इति उच्यन्ते सुधृतिः क्षमा दमः अस्तेयं दमोऽस्तेयं सुदमः अस्तेयं ततः अक्रोधः दशकम् अक्रोधो दशकम् एवं विसर्गस्य उकारादेशः दृष्टः अत्र केचन प्रश्नाः सन्ति अथ इत्यस्य सकारार्थः अस्ति वा कदाचिदस्ति समुच्चयः सो विश्वामित्रोऽथ गौतमः इत्युक्ते विश्वामित्रः अथ गौतमः इत्युक्ते सकारः अथ शब्दः समुच्चयार्थे अपि उपयुज्यते अग्रे आचार्यो वदति इत्यादिषु एकं पदम् एव लेखितुं शक्यते वा इति प्रश्नः अत्र विसर्गसन्धौ सर्वत्र सः सन्देहः भवितुम् अर्हति यथा अक्रोधः दशकम् इत्यस्ति तत्र अक्रोधो दशकम् इति सन्धिः भवति तत्र एकपदत्वेन लेखितुं शक्यते वा इति लेखितुं शक्यते सि इट् इस् प्योर्ली अ रैटिङ्ग् कन्वेन्शन् लेखनस्य शैली तावदेव वस्तुतः अस्माकम् उच्चारणे एव तात्पर्यम् अतः अक्रोधो दशकम् वयं यथा कथञ्चित् लिखामः उच्चारणं तु अक्रोधो दशकम् इत्येव क्रियते अतः लेखने व्याकरणस्य पात्रं नास्ति सो व्याकरणस्य प्रश्नः न किन्तु यदि अयं प्रश्नः सामान्यतः भवति उभयथापि लेखितुं शक्यते सामान्या रीतिः का इति यत्र इदानीं वयं किं कुर्मः कश्यपोत्रिः इत्यत्र एकादेशः अस्ति अर्थात् एकं क्षणं यत्र पूर्वरूपं भवति तत्र छेदं कर्तुं न शक्नुमः यतोहि रामो अपि इति स्थिते पूर्वस्य ओकारस्य अग्रे विद्यमानस्य अकारस्य उभयोः स्थाने ओकारः आदेशः क्रियते एकादेशः इत्युच्यते अतः अत्र रामोऽपि इति मिलित्वा एव लेखनीयं तथैव उच्चारणमपि क्रियते यत्र तु पूर्वरूपं नास्ति तत्र रामः इति पदं तत्र विसर्गस्य स्थाने उकारे राम उ इति पदं पुनः अत्र अकार उकारयोः सन्धिः क्रियते अस्माभिः सो वी आर् डूयिङ्ग् सन्धि ओन्ली फार् दिस् पोर्शन् राम एण्ड् उ विच् इस् वन् वर्ड् सो तत्र रामो इति एकं पदं यथा रामः इति पृथक् लिख्यते तथा रामो इति पृथक् लेखने न कोऽपि दोषः अत्र भिन्नं पदम् इति दर्शयितुमेव अतः पृथग् लेखने अपि दोषः नास्ति यदि मिलित्वा लिखामि इति उच्यते तत्रापि दोषं वक्तुं न शक्नुमः यतोहि संहिता अस्त्येव अत्र अस्मिन्नेव केचन वदन्ति इदानीं यथा इति अपि अस्ति इति इति एकं पदम् अपि इति एकं पदं तत्र यण्सन्धिः भवति इकारस्य अकारे परे इकारस्य स्थाने यकारः सो यण्सन्धिः अपि एकादेशः न अतः केवलम् इकारस्य स्थाने यकारः सो अत्र केचन इत्य इति एकं पदं लिखित्वा मध्ये विरामं स्पेस् दत्वा इत्य अपि इति लिखन्ति. सो इट् इस् एक्चुलि अ न्यू ट्रेण्ड्. बहवः आङ्ग्लभाषया आङ्ग्ललिप्या यदा लिखन्ति तत्रापि ऐ टि वै स्पेस् ए पि ऐ इति लिखन्ति. संस्कृतेनापि केचन तथा लिखन्ति. तत्र दोषः इति वक्तुं न शक्यते. सामान्यतः तथा न लिख्यते इत्येव वक्तुं शक्नुमः. सो इत्यपि इति योजयित्वा लेखनमेव सामान्यतः क्रियते. यत्र पदविभागः स्पष्टः अस्ति एतादृशेषु पदं विभज्य एव लिखामः इति रूढिः तत्र न कश्चिन् नियमः व्याकरणे वर्तते. यतोहि लेखनं व्याकरणस्य विषयः न. अनन्तरं राज शर्मा केन सूत्रेण इति पृष्टं. कस्य विषये सूत्रं पृष्टं महोदय?
उकार इति उकारस्य नाम ह्रस्वकारस्य ह्रस्वकारात् परतः यः विसर्गः तस्मात् परतः यः अकारः उकारो भवति अथवा मृदुव्यञ्जनं यदि स्यात् तत्र उकारः भवति इति उक्तं भवत्या. केन सूत्रेण इति प्रश्नः.
उकारस्य उकारादेशः केन सूत्रेण भवति?
आमाम्
हशि च इति सूत्रमस्ति. भोभगो हशि च इति सूत्रेण उकारः. अन्यदेकं सूत्रमस्ति
खरिचप्लुते अतोरोप्लुते
तदपि अस्ति. अतः अत्र बहूनि सूत्राणि सन्ति. अतोरोरप्लुतारप्लुते इत्यनेन ह्रस्व अकारे परे कार्यं विधीयते. अन्यत्र मृदुव्यञ्जने परे तेन हशि च इत्यनेन विधीयते. अस्तु अग्रे गच्छामः. विसर्गस्य उकारादेशः दृष्टः. अग्रे द्वितीयः विसर्गसन्धिः लोपः. विसर्गस्य लोपः भवति. विसर्गस्य लोपः कुत्र भवति इत्यत्र त्रयः नियमाः सन्ति. सो विसर्गस्य लोपं विधातुं त्रयः नियमाः सन्ति. सो तत्र प्रथमः नियमः ह्रस्व अकारात् परस्य विसर्गस्य अह इत्यस्ति. तस्य स्वरे परे केषु स्वरेषु परेषु ह्रस्व अकारं विहाय. सो पूर्वत्र दृष्टम् अकार अह इत्यस्य ह्रस्व अकारे परे उकारः भवति. अतः ह्रस्व अकारं विहाय अन्येषु स्वरेषु परेषु विसर्गस्य लोपः भवति. यदा ह्रस्वाकारात् परं विसर्गः अस्ति ततः परं स्वराः सन्ति. के स्वराः? ह्रस्व अकारं विहाय अन्ये स्वराः. तत्र विसर्गस्य लोपः भवति. बहुप्रसिद्धम् अर्जुनः उवाच. सो अर्जुनः इत्यत्र अह इत्यस्ति. अग्रे उकारः. इदानीं तत्र विसर्गस्य लोपे अर्जुन उवाच. एवं मुकुन्दः एवं. सो मुकुन्द एवं. सो अह ए. सो अह आ. ह्रस्वाकारं विहाय दीर्घ आकारे परे अपि लोपः भवति. सो बालः आगच्छति बाल आगच्छति सो ह्रस्वाकारात् परस्य विसर्गस्य ह्रस्व अकारं विहाय अन्येषु स्वरेषु परेषु लोपः भवति इति प्रथमः नियमः द्वितीयः नियमः अस्ति दीर्घ आकारात् परः विसर्गः सो एतावत् पर्यन्तं ह्रस्व आकारात् परः विसर्गः एव दृष्टः दीर्घ आकारात् परस्य विसर्गस्य स्वरे मृदुव्यञ्जने वा परे सो एनी स्वर और् मृदुव्यञ्जन सो तस्मिन् परे अपि विसर्गस्य लोपः भवति सो बालकाः अत्र सो बालकाः इत्यत्र आह आकारात् परः विसर्गः सो अकारे परे लोपः भवति बालका अत्र भक्ताः आगच्छन्ति सो भक्ता आगच्छन्ति जनाः एव सो आह प्लस् ए जना एव अश्वाः धावन्ति धकारः मृदुव्यञ्जनं सो तस्मिन् परे अश्वा धावन्ति इति भवति सो ह्रस्व विसर्गात् पूर्वं ह्रस्वकारः अस्ति चेत् अग्रे ह्रस्वविकार अकारं विहाय अन्येषु स्वरेषु परतः लोपः भवति दीर्घः आकारः अस्ति चेत् सर्वेषु स्वरेषु मृदुव्यञ्जनेषु च परेषु विसर्गस्य लोपः भवति इति द्वितीयः नियमः लोपसन्धेः अनन्तरं तृतीयः नियमः अस्ति सः एषः एतयोः शब्दयोः सो फार् द वर्ड् सः एषः सो वेन् फालोड् बै एनी स्वर और् व्यञ्जन अग्रे ह्रस्व अकारं विहाय यः कोऽपि स्वरः व्यञ्जनं वा भवति चेत् विसर्गस्य लोपः भवति सो यः कोऽपि वर्णः ह्रस्वम् अकारं विहाय ह्रस्वाकारे परे उकारः भवति तस्य गुणः पूर्वरूपः सः अपि सोऽपि एषः अत्र एषोऽत्र सो उकारादेशः भवति सो ह्रस्वम् अकारं विहाय अन्येषु सर्वेषु स्वरेषु व्यञ्जनेषु वा परेषु सः एषः इत्येतयोः शब्दयोः विसर्गस्य लोपः भवति सो यु हाव् सः आहूतः स आहूतः एषः एव एष एव सः धन्यः स धन्यः एषः सन्न्यासी एष सन्न्यासी सो मृदुव्यञ्जनं वा कर्कशव्यञ्जनं वा सर्वेषु व्यञ्जनेषु परेषु भवति ह्रस्वम् अकारं विहाय सर्वेषु स्वरेषु अपि भवति लोपः एवं लोपस्य त्रयः नियमाः सन्ति सो ह्रस्व अकारात् परस्य विसर्गस्य ह्रस्वाकारं विहाय अन्येषु स्वरेषु परेषु लोपः भवति दीर्घ आकारात् परस्य विसर्गस्य स्वरे मृदुव्यञ्जने वा परे लोपः भवति एषः सः एताभ्यां परस्य विसर्गस्य सर्वेषु वर्णेषु ह्रस्वम् अकारं विहाय सर्वेषु वर्णेषु परतः लोपः भवति एते त्रयः नियमाः अनन्तरं विसर्गसन्धेः लोपे अत्यन्तं मुख्यः विशिष्टः अंशः विसर्गस्य लोपानन्तरं स्वरसन्धिः न भवति विसर्गस्य लोपं कुर्मः अनन्तरं स्वरः अस्ति किल यथा अर्जुन उवाच इत्यस्ति अकारस्य उकारः अस्ति गुणसन्धिः अर्जुनोवाच इति भवति किन्तु तद्रूपम् अशुद्धम् अर्जुन उवाच इत्येव शुद्धम् अर्जुनोवाच इति अशुद्धम्. सो सर्वत्रापि यत्र यत्र विसर्गस्य लोपः क्रियते तत्र तदनन्तरं स्वरसन्धिः तु न क्रियते. सो देवा अपि इत्यस्ति. सो आकारस्य अकारे परे सवर्णदीर्घसन्धिः यदि क्रियते देवापि इति भवति, किन्तु तत् न युक्तं. देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः इति भगवद्गीतायाम् अस्ति. सो देवा अपि, देवा अपि इत्येव भवति. एवं सः एव विसर्गस्य लोपे कृते स एव, स एव इत्येव रूपं, न तु सैव इति. सो वृद्धिसन्धिः न भवति. ओके, सो एनी स्वरसन्धि विल् नाट् हेपन् आफ्टर् विसर्गसन्धि. तत्र कारणं किम् इत्युक्ते, कारणम् अस्ति पाणिनीयव्याकरणे, तत्र विशिष्य कारणं विद्यते, किन्तु अस्मिन् स्तरे नापेक्षितम् इत्यतः न कथ्यते. यदि पाणिनिसूत्राणि अधीतवन्तः केचन सन्ति तर्हि पूर्वत्रासिद्धम् इति विसर्गलोपस्य असिद्धत्वात् अग्रे स्वरसन्धिः न भवति इति कारणं. ये न जानन्ति तद्विषये चिन्तां न कुर्वन्तु, अग्रे जानीमः. विसर्गलोपे एव, नाट् अदर् सन्धि. विसर्गस्य उकारे कृते सन्धिः भवति, विसर्गस्य लोपे कृते अन्ये सन्धयः न भवन्ति इत्येव नियमः. अत्र प्रश्नाः सन्ति वा? अभ्यासं पश्यामः. Any other question? Namaraji Mahalaya, Prashna has to know.
Okay, yeah, Asti, please. So we did apply Purva Rupa Santi earlier after the after applying Visarga Sandhi. So yeah,
not about generally about Visarga Sandhi.
Okay.
Visargasya lopaha. Lopam kratva agre anyaha sandhi hi na kriyate.
Okay, okay. Okay, avagatam. Thank you.
So, it is not in general about other Visarga Sandhi. Visargasya lopanantaram अन्यः स्वरसन्धिः न क्रियते. अभ्यासान् पश्यामः. ये वक्तुमिच्छन्ति हस्तम् उन्नयन्ति. ततः पूर्वं कश्चित् प्रश्नः, प्रथमः नियमः पुनः उच्यताम् इति. ह्रस्व अकारानन्तरं यः विसर्गः तस्मात् स्वरेषु परेषु ह्रस्व अकारं विहाय. तो पूर्वमेव ज्ञातवन्तः ह्रस्वकारात् परस्य विसर्गस्य ह्रस्वकारे परे उकारादेशः भवति. सो दट् वास् द फस्ट् सन्धि. सो ह्रस्वकार अह इत्यस्मात् अकारे मृदुव्यञ्जने वा परे उकारः भवति इति ज्ञातवन्तः. इदानीम् अह इत्यस्मात् अन्येषु स्वरेषु ह्रस्वम् अकारं विहाय अन्येषु स्वरेषु परेषु विसर्गस्य लोपः भवति. सो अर्जुनः इत्यत्र अह ह्रस्वकारात् परः विसर्गः, तदनन्तरम् उकारः अस्ति, अतः विसर्गस्य लोपः. अर्जुन उवाच. अग्रे गच्छामः. महालक्ष्मी
फोर्थ वन. बालका आनन्देन क्रीडति.
बालकाः आनन्देन, सो विसर्गस्य लोपे बालका आनन्देन क्रीडन्ति.
शिक्षकाः अत्र फर्स्ट वन.
शिक्षका अत्र. सुधा
द सेकेंड वन. द्वितीयं प्रेक्षका अपश्यन्.
अपश्यन्
अपश्यन् द फोर्थ वन.
तो प्रेक्षका अपश्यन्.
अपश्यन्
सम्यक्.
छात्राः प्लस अस्मिन् दैट इज छात्रा अस्मिन् दैट इज सेकेंड वन.
द्वितीयं सम्यक्. धन्यवादः. वेणु महोदय कर्मकराः गच्छन्ति.
श्रूयते वा?
श्रूयते.
कर्मकाराः गच्छन्ति. फर्स्ट वन.
कर्मकरा गच्छन्ति. अग्रे पक्षिणः उड्डयन्ते. वेणु महोदय
उड्डयन्ते. पक्षिण उड्डयन्ते सेकेंड वन.
सेकेंड वन पक्षिण उड्डयन्ते. उत्तमं. सीता महाराज न श्रूयते.
बालिकाः बालिकाः अनृत्यन्. बालिका अनृत्यन् सेकेंड वन.
बालिका अनृत्यन्.
सेवकाः उद्यानं गच्छन्ति. सेवका उद्यानं गच्छन्ति थर्ड वन.
सेवका उद्यानं गच्छन्ति. सम्यक्. रामनाथ महोदय you have to unmute yourself.
Megha akasho santi. Megha akasho santi.
First
one.
Prathamam. Megha akashe santi.
Kokilaha agayan. Kokila अगायन.
कोकिला अगायन. सम्यक्. धन्यवादः. उषा. उषा अपि
वामन ऐच्छत्. वामनः ऐच्छत् द्वितीयम्.
वामनः ऐच्छत्. Should be the correct answer. No, that was the correct answer. There is some error in the this one.
Okay. Eshah dadati prathamam.
So Esha dadati. Eshah dadati. Sammek. Dhanyavadaha. Abhinash.
Vruksha edhate. सेकंड वन वृक्षः एधते
वृक्षः एधते
एषः बालकः फोर्थ वन एषः प्लस बालकः
सम्यक् एषः बालकः ललिता सिंह योर टर्न
नमस्कारम् कृष्ण इच्छति तृतीय थर्ड वन कृष्णः प्लस इच्छति
कृष्णः इच्छति
स गच्छति फर्स्ट वन प्रथम सः प्लस गच्छति
सम्यक् सः गच्छति स गच्छति महेश्वरी दीक्षित
नमस्ते भगिनी सा वदति तृतीयं सः प्लस वदति
सः वदति स वदति
राम आह्वयति रामः प्लस आह्वयति प्रथमं
रामः आह्वयति राम आह्वयति धन्यवादः राजेश्वरी भगिनी
एषः गणेशः एषः गणेशः फोर्थ वन् नो सेकेण्ड् वन् एषः गणेशः सेकेण्ड् वन्
एषः गणेशः
गणेशः
हरीश उवाच
हरीश उवाच हरीशः हरीशः उवाच सेकेण्ड् वन्
सम्यक् हरीशः उवाच
उवाच
सम्यक् धन्यवादः
एकं वृक्षं समारूढा नानावर्णा विहङ्गमाः
समारूढा नानावर्णा विहङ्गमाः एकं वृक्षं समारूढा नानावर्णा विहङ्गमाः प्रभाते दिक्षु गच्छन्ति तत्र का परिदेवना सो रात्रौ एकस्मिन्नेव वृक्षे भिन्नाः विहङ्गमाः इत्युक्ते पक्षिणः सर्वे मिलित्वा भवन्ति प्रातःकाले तु भिन्नासु दिक्षु गच्छन्ति तत्र शोकस्य विषयः नास्ति इति चाणक्यनीतौ अस्ति अग्रे
नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः
नीतिज्ञा नियतिज्ञा वेदज्ञा वस्तुतः तत्रापि लोपः भवति वेदज्ञा अपि भवन्ति शास्त्रज्ञाः
ब्रह्मज्ञा अपि लभ्याः
ब्रह्मज्ञा अपि लभ्याः स्वज्ञानज्ञानिनो विरलाः नीतिं ये जानन्ति ते नीतिज्ञाः नीतिं जानन्ति नियतिः इत्युक्ते विधिः दैवं दैवज्ञाः तेपि वेदान् जानन्ति शास्त्राणि जानन्ति ब्रह्म परब्रह्म अपि जानन्ति ते अपि लभ्यन्ते स्वज्ञानज्ञानिनः स्वज्ञानस्य ज्ञानिनः वयं कियज्जानीमः इति ये जानन्ति ते विरलाः वयं बहु जानीमः इत्येव सर्वे चिन्तयन्ति इत्यर्थः सो विसर्गसन्धेः लोपः ज्ञातः इति भावयामि सो लोपसन्धेः नियमत्रयं ह्रस्वाकारात् परस्य विसर्गस्य ह्रस्व अकारं विहाय अन्येषु स्वरेषु परेषु लोपः भवति. दीर्घ आकारात् परस्य विसर्गस्य स्वरे मृदुव्यञ्जने वा परे लोपः भवति. सः एषः एताभ्यां परस्य विसर्गस्य ह्रस्व अकारं विहाय अन्येषु सर्वेषु वर्णेषु परतः लोपः भवति. विसर्गस्य लोपे कृते स्वरसन्धिः न भवति. लोपानन्तरं स्वरसन्धिः न क्रियते. इत्येते अद्यतन मुख्यांशाः. सो अग्रे गच्छामः. प्रश्नाः सन्ति वा? रामः आह्वयति. राम आह्वयति इत्येव भवति. रामोह्वयति इति न भवति. यदि दीर्घः आकारः अस्ति तर्हि लोपः एव. रामः आह्वयति, राम आह्वयति इत्येव.
लोपहल कः अहं कोऽहं तादृशम् उकारः न भवति वा?
तदेव आह्वयति इत्यत्र दीर्घः आकारः अस्ति न भवति. ह्रस्वः आकारः अस्ति चेदेव भवति. कः अहं? रामः अहं, रामोऽहं. रामः अस्ति, रामोऽस्ति.
ओ अस्तु अस्तु, धन्यवादः.
अग्रे सुभाषितानि पश्यामः. यः प्रीणयेत् सुचरितैः पितरं सपुत्रः, यद्भर्तुरेव हितमिच्छति तत्कलत्रं, तन्मित्रमापदि सुखे च समस्क्रियं यत्, एतत्त्रयं जगति पुण्यकृतो लभन्ते. विजयश्री.
नमस्ते. पदविच्छेदः यः प्रीणयेत् सुचरितैः पितरं सः पुत्रः, यत्
सः पुत्रः सपुत्रः अद्यैव दृष्टः विसर्गस्य लोपः.
यत् भर्तुः एव हितम् इच्छति तत् कलत्रं, तत् मित्रम् आपदि सुखे च समक्रियं यत् एतत् त्रयं जगति पुण्यकृतः लभन्ते. सन्धिः सः पुत्रः लोपः. पुत्रः यत् ओकार अभवत्. यत् यत् भर्तुः जस्य सन्धि भर्तुः
शब्दः एव वस्तुतः दकारः एव भवति. तत् यतो हि दकारान्तः एव यद् शब्दः.
या भर्तुः एव रेफः अभवत्. तत् मित्रम् अनुनासिकसन्धि. पुण्यकृतः सारि पुण्यकृत या थैंक यू. पुण्यकृतः लभन्ते. पुण्यकृतो लभन्ते ओकारः अभवत्. वाक्यविश्लेषणं प्रीणयेत् इच्छति लभन्ते क्रियापदत्रयम् अस्ति. प्रथमाविभक्ति यः सः पुत्रः, यत् तत् कलत्रं मित्रम् एतत् त्रयम्. द्वितीयविभक्ति
क्रियम् इत्यपि प्रथमविभक्तिः एव.
ओ इस् इट्? ऐ पुट् इट् इन्, ऐ वास् डौट्फुल्. ओके.
मित्रम् इत्यस्य विशेषणं.
ओके ओके. मित्रं समक्रियं, रैट्. द्वितीयविभक्ति पितरं hitam punyakrutaha. Is it okay? Tritiya vibhakti sucharitaihi.
What was it? Pitaram, hitam and?
Punyakrutaha.
No. Punyakrutaha ityapi prathama eva.
Is it? Okay.
Trayam iti dvitiya. So pitaram, hitam, trayam.
Oh. Right. Thank you. Sucharitaihi tritiya. Eva cha avyayani. Then bhattuhu shashti vibhakti. Apadi sukhe jagati saptami. Anvaya Rachana, I was very doubtful, but I tried. I hope. Labhante is the kriyapadam. Kan labhante punyakrutaha. Here I made mistake, I think.
Ke labhante punyakrutaha.
Yeah, because I thought it was a waiting. Okay, ke labhante punyakrutaha. Punyakrutaha kim labhante. Etatrayam. Kidrusham trayam. Tadrusha putraha, tadrusham kalatram, tadrusham mitram. Kidrushaha putraha. Yaha prinayet. Akam prinayet. Pitaram prinayet. Kaihi prinayet. Sucharitaihi prinayet.
Samyak.
Kidrusham kalatram. Tat kalatram yat icchati. Kim icchati, hitam eva icchati. Kasya hitam icchati. Pachyuhu hitam icchati. Kidrusham, next kidrusham mitram. Tat mitram yat samakriyam. Kada samakriyam apadi vipatte. Punaha kada samakriyam sukhecha. Is it okay? Yeah, next anvayam. Yaha sucharitaihi pitaram prinayet saha putraha. Yat bhattuhu hitam eva ichyati tat kalatram. Next, yat apadi sukhecha samakriyam tat mitram. Etat trayam jagati punyakrutaha labhante. This is annoying. Next, vyakaranamsaha. Prinayet. Linglakaraha. Parasmaipadi, pradhama purusha. Ekavachanam. Ichyati. Ichdhatu. Parasmaipadi, latlakaraha. Pradhama purushaha ekavachanam. Labhante labdhatuhu atmanepadi latlakaraha pradham purusha bahuvachanam. Next, yaha dakarantaha pumlingaha yadshabdam pradhama vibhakti ekavachanam. Then sucharitaihi akarantaha pumlingaha tritiya vibhakti bahuvachanam. Then akarantaha pumlingaha tritiya vibhakti bahuvachanam. Saha again dakarantaha padshabdaha pradhama vibhakti ekavachanam. Putraha akarantaha pumlingaha pradhama vibhakti ekavachanam. Yat dakarantaha napumsaklingaha pradhama vibhakti ekavachanam. Tad again dakarantaha napumsaklingaha pradhama vibhakti ekavachanam. Kalatram makarantaha napumsaklingaha pradhama vibhakti ekavachanam.
Akarantaha
akarantaha
kalatra shabdaha.
Okay, thank you. Mitram, mitra shabdha. Rukarantaha napumsakalingaha pradhama vibhakti ekavachanam.
Mitra akarantaha napumsakalingaha.
Okay. Akarantaha. Next, etat दकारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनं पितरं ऋकारान्तः पुंलिङ्गः पितृशब्दः द्वितीयाविभक्ति एकवचनं हितं तकारान्तः नपुंसकलिङ्गः अकारान्तः ओ हित ओके ओके नपुंसकलिङ्गः द्वितीयाविभक्ति एकवचनं समक्रियं अकारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनं सुचरितैः फिनिश् जगति तकारान्तः नपुंसकलिङ्गः जगत् शब्दः सप्तमी विभक्ति एकवचनं पुण्यकृतः तकारान्तः पुंलिङ्गः पुण्यकृत् शब्दः ऐ रोट् द्वितीयाविभक्ति बहुवचनं ओके प्रथमाविभक्ति बहुवचनं या थेङ्क् यू ऐ मेड् सो मेनि मिस्टेक् नेक्स्ट् तात्पर्यं यः समुचित व्यवहारेण पितरं प्रसन्न करोति सः एव सम्यक् पुत्रः अस्ति इति हियर् अध्याहारं या पत्नी सदैव पत्युः हितम् इच्छति सा एव पत्नी तत् मित्रं यत् विपत्तौ सुखे चापि समानरूपेण व्यवहारं करोति एतादृशाः जनाः सर्वेषां कृते न लभन्ते पुण्यकृतः एव लभन्ते
लता भगिनी so wants to know if there is, can be a different this one varatu bhai
havito
padati
I wrote kriya padam bhavati
yeah
kaha bhavati sah bhavati kaha yah putrah kim kuri that only I don't know kim kuriyat or kurvan putrah preenayet I wanted to answer that preenayet what he did preenayet kim
kidrishah putrah yah preenayet itteva
vaktavyam kidrishah putrah yah preenayet putrah kam preenayet pitaram preenayet kaihi preenayet bhavati sucharitaihi preenayet kim bhavati
preenayet bhavati iti na bhavati भवति कः भवति पुत्रः भवति सः पुत्रः भवति कीदृशः सः पुत्रः भवति यः प्रीणयेत् सो अग्रिमप्रश्नाः प्रीणयेत् इत्यस्यैव सो कं प्रीणयेत् पितरं प्रीणयेत् कैः प्रीणयेत् सुचरितैः प्रीणयेत् तत्र वाक्यं समाप्तम्
ओके सेम् वे किं भवति तत् किं कलत्रं यत् कलत्रम्
यत् कलत्रम् इति तु कीदृशं कलत्रम् इति पृष्टे यत् भर्तुः हितमिच्छति तत्
सो किं भवति तत् भवति तत् किं कलत्रं कीदृशं कलत्रं यत् कलत्रं किं करोति कलत्रम् इच्छति
कीदृशं कलत्रं यदिच्छति तत् कलत्रं यदिच्छति इत्येव कीदृशम् इत्यस्य उत्तरम् तत् कलत्रं भवति कीदृशं तत् कलत्रं भवति यत् इच्छति किम् इच्छति हितम् इच्छति हितम् एव इच्छति तस्य हितमेव इच्छति भर्तुः
किम् इच्छति हितमेव ऐ रोट् देन् कस्य हितं भर्तुः सो सेम् वेदन् किं भवति तत् भवति तत् किं तत् मित्रं कीदृशं मित्रं यत् समक्रियं मित्रं कस्मिन् भवति आपदि कस्मिन् समक्रियम् आपदि सुखे च पुनः नो देन् लभन्ते के लभन्ते पुण्यकृतः लभन्ते किं लभन्ते एतत्
एतत् त्रयम्
एतत् त्रयम् सुचरितैः पुत्रः हितमेव इच्छत् कळत्रम् आपदि सुखे च समक्रियं मित्रम्
चिन्ता नास्ति बहुत्र श्लोकेषु एवं भवति देर् केन् बि मल्टिपल् वेस् इन् विच् यु गेट् एट् द अन्वय सो एस् लाङ्ग् एस् द फैनल् मीनिङ्ग् इस् नाट् चेञ्ज्ड् इट् इस् फैन् एतदेव भवेत् इति नास्ति सो आकाङ्क्षाक्रमः अर्थम् आश्रित्य भवति सो अन्त्यतः आरभ्य किं लभन्ते इति प्रधानं क्रियापदं श्लोके सो किं लभन्ते एतत् त्रयं किं तत् इत्युक्त्वा पूर्वस्य त्रयस्य व्याख्यानं कर्तुं शक्यते अथवा पूर्वं त्रयम् उक्त्वा एतत् त्रयम् इति वक्तुं शक्यते अतः उभयथापि अन्वये क्लेशः नास्ति ओके सो एस् लाङ्ग् एस् यु आर् अण्डर्स्टाण्डिङ्ग् द श्लोक करेक्ट्लि इट् इस् ओके टु हव् मल्टिपल् वेस् आफ् इण्टर्प्रिटिङ्ग् इट् ओके सो चत्वारि वाक्यानि सन्ति सत्यमेव इदानीं यदा लता भगिनी उक्तवती तत्र चत्वारि वाक्यानि तत्र एकैकं वाक्यं पृथक् एकैकस्य वाक्यस्य अन्वयं कृत्वा अनन्तरं योजयित्वा अन्वयं कर्तुं शक्नुमः ओके दट् इस् फैन् नो प्राब्लम् सो अर्थः कः सः पुत्रः भवति कः यः प्रीणयेत् प्रसादयेत् आनन्दयेत् कम् आनन्दयेत् पितरं पितरम् इत्यनेन केवलं पिता इत्येव न सो पितरौ सो मातरं पितरं च आनन्दयेत् कैः आनन्दयेत् सुचरितैः स्वस्य उत्तमगुणैः यः पित्रोः आनन्दं जनयति स एव उत्तमः पुत्रः यत् हितम् इच्छति सो या सर्वदा हितम् एव काङ्क्षति तस्य पत्युः पत्युः सर्वदा हितकाङ्क्षिणी या सा एव उत्तमा भार्या भवति सो तदेव उत्तमं मित्रम् अथवा सः एव उत्तमः सुहृत् कः आपदि सुखे च समक्रियः सो आपत्काले वा सन्तोषस्य काले वा यः समक्रियः समानरीत्या आचरति सः उत्तमः सुहृत् एतत् त्रयम् उत्तमं पुत्रम् उत्तमां भार्याम् उत्तमं सुहृदं च लभन्ते प्राप्नुवन्ति के प्राप्नुवन्ति पुण्यकृतः पुण्यशालिनः ये उत्तमकर्माणि कृतवन्तः पुण्यं लब्धवन्तः ते एव एतादृशं त्रयं जगति प्रपञ्चे प्राप्तुं शक्नुवन्ति इत्यर्थः अर्थात् सुलभतया एतत् त्रयं न लभ्यते पुण्यफलादेव एतत् त्रयं लभ्यते इत्यर्थः तत्र कलत्रशब्दे विशेषः ज्ञातव्यः कलत्रम् इत्युक्ते पत्नी सो पत्नी संस्कृते लिङ्गम् अर्थम् आश्रित्य न भवति वयं जानीमः वृक्षशब्दः पुल्लिङ्गे नदीशब्दः स्त्रीलिङ्गे सो तस्य उदाहरणत्वेन एतदपि दीयते सो पत्नी इत्यस्य लिङ्गत्रये अपि पदानि सन्ति सो भार्या पत्नी इत्यादि स्त्रीलिङ्गे सन्त्येव पुल्लिङ्गे दाराः इति शब्दः अस्ति नपुंसकलिङ्गे कलत्रम् इति शब्दः अस्ति सो शब्दः नपुंसकलिङ्गे अर्थः तु पत्नी इत्येव सो शब्दाश्रितं लिङ्गं भवति मित्रं शब्देपि तथैव तन्मित्रं सः वा सा वा सामान्यतः मित्रम् इत्येव नपुंसकलिङ्गे एव शब्दः सुहृत् इति वदामः चेत् पुल्लिङ्गे भवति इत्यादि सो अग्रे गच्छामः अस्य श्लोकस्य विषये प्रश्नाः सन्ति वा
I was having some difficulty the punya kritaha labante, then the first three lines should be in dvitiya vibhakti, isn't it?
No, trayam labante. Etat trayam labante. So those three are independent sentences. Yaha sucharitaihi pitaram preenayet saha putraha tadeva bhavati iti adhyahara sutaha saha putraha bhavati. Yat bhartuhu hitameva icchati tat kalatram bhavati. Yat apadi sukhecha samakriyam tan mitram bhavati. Etat trayam ityanena sambandhaha kalpyate. Etatrayam iti dvitiya vibhakti. Etatrayam punyakritaha.
Okay. So I was struggling for a while because I was thinking they are connected to punyakritaha labante.
You cannot directly connect them because they are not in dvitiya. They are simply defining the three things.
Okay.
And then you are saying all these three, only punyakritaha can attain these three. So trayam eva dvitiya vibhakto.
Okay, and one more question. And punya kritaha, what is the this one? Ekavachanam for punya kritaha.
Punya
krit. Okay, okay.
Punya krit, punya kritau, punya kritaha.
Okay.
Punyam karoti iti punya krit. He who performs punya, that is, deeds which generate punya.
Okay, okay. Dhanyavada. Thank you.
अन्य प्रश्नाः सन्ति वा अग्रे गच्छामः प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सरसि कथनं चाप्युपकृतेः अनुत्तेको लक्ष्म्यां निरभिभवसाराः परकथाः ततां केनोद्दिष्टं विषममसि धाराव्रतमिदं पुनः नीतिशतकस्य श्लोकः निर्मला राजशेखर
नमस्ते भगिनी
नमस्ते
I had a question in the previous shloka subhashitam which I couldn't get through to you. One is that for kalatram, is it pratama vibhakti or dvitiya vibhakti? Pagini, I have taken it as pratama, is it?
Yeah, all these three, the first three are in pratama. Saha putraha tat kalatram tan mitram.
So all I can, when I do the anvayam, I can say that I can take it as four verbs, which is one is icchanti, one is the different
the preenayet is the verb, but that is not the main verb for that sentence, right? So tatra bhavati iti adhyaharaha saha putraha bhavati kaha putraha bhavati yaha preenayet.
Okay,
saha putraha bhavati yaha yat tat kalatram bhavati.
Okay. So adhyaharaha, you can take it as bhavati and then labante, is it?
Labante is there.
So labante will be the final, But yeah, all others, only if it is bhavati, then I will get dvitiya vibhakti for putram, kalatram and mitram.
No. If it is bhavati, you get prathama. Saha putraha bhavati, tat kalatram bhavati, tan mitram bhavati. Yatha vrikshaha asti. Vrikshaha bhavati tatha. So since it is prathama, you have to take bhavati. If it is any other vibhakti, you will have a kriyapada in the sentence.
Okay.
Since it is prathama, you need that adhyahara.
Okay. Dhanyavada bhagini. Thank you.
Do you want to try for this shloka?
I'm not very sure, Bhagini, but I will just try and try. If I'm not able, I'll leave it halfway. Please excuse.
No.
Pradhanam, padavibhagaha is pradhanam, prachannam, graham plus upagate, then sambhrama vidihi, priyam kritva, maunam, sadasi katanam cha api plus upakrite. You get the answer leaders apyupakrite. Then anutsekaha lakshyam nira nirabhi bhavasaraha parakataha satam kena plus drishtam visargasandhi then vishamam plus asidhara vritam plus idam. Tatparyam is like giving charity without making it known, extending hospitality to guests when they arrive, doing favors and not talking about it, praising others openly for help rendered, not being to be humble about wealth, and never criticizing others when talking about them. Who has prescribed these to the learned or to the pious? And I've taken towards that, actually up to that I have done, beyond that I have not gone because I was not very sure whether this is prachanna, is a shatra pratyaya, is it? Prachanna pradhana?
Channam is kta pratyaya. Prachannam guptam ityartha.
Okay. I've done only so much, Bhagini. I've not proceeded beyond because I found it very difficult. So,
then you can try. So, yada dirghaha bhavati, tada it is a bit difficult right from the beginning. But we can do it. Abhyasena siddhyati. Mahalakshmi.
Okay. I'm also, then, okay. Vakya visleshanam. Hello? Kriyapadam. Bhavati vyaharam. Pratama vibhakti hi. Pradhanam, prachannam, griham, samrama vidhi. Maunam, khatanam, upakritah, anutsekah, vishamam, udrishtam, asidara vratam.
Parakathah. That is also prathama.
Yeah. Oh, I have taken test dvitiya. Okay. So it's actually parakathah. You shouldn't talk about ill about others, no? Then it is not dvitiya.
Nirabhibhavasarah parakathah is prathama.
Okay. Priyam dvitiya. Tritiya kena. Chaturthi upagate. Shashti satam.
What is chaturthi? Upagate is saptami.
Saptami.
Upagate, sadasi, lakshmyam. All three are saptami.
Okay. Shashti satam.
Satam upakritehe. Upakritehe ityapi shashti.
Upakritah, no? That is?
Upakritehe.
Upakritehe. Okay. Avyayam kritva cha api. So, anvayaha, kriyapadam, udrishtam asti. Kena udrishtam, kofi na janati. Kim udrishtam asidara vritam, that is palikam. Kidrisham asidara vritam vishamam, tivram. Kesham udrishtam satam. Sajjananam. Kidrishaha satah, sat, pulling is it? Kidrishaha satah.
Kidrisha, but why? What do you want for the satam? There is no visheshana for satam.
Kidrisham ratam.
Kidrisham ratam. What kind of rata? So all of those is kidrisham ratam. or kim vratam. What is the vrata? What is it saying? Vishamam idam asidhara vratam. Asidhara, asidhara ityukte khadgasya agre. Khadgasya agrabhage chalanam yavat kathinam. Tavat vishamam bahu klishtam idam vratam. Vratam niyamaha satam sajjananam kena uddishtaha. Uddishtam upadishtam. Ityarthaha kim vratam tat ityukte etat sarvam api. बहिः कथनं न भवति.
किं कुर्वन्ति सम्भ्रमविधिः कस्मै कुर्वन्ति
यतो हि कुर्वन्ति इति नास्ति. किं व्रतम् इति पृष्ट्वा प्रदानम् प्रदानं दानं कीदृशं प्रदानं प्रच्छन्नम् उक्तं प्रदानं पुनः किं व्रतं संभ्रमविधिः. सो सन्तोषस्य सन्तोषेण आचरणं. सो कस्य विषये उपगते यः प्राप्तः अतिथिः गृहम् उपगते इत्युक्ते गृहम् आगतानाम् अतिथीनां विषये सन्तोषेण आचरणम्. अयो एते किमर्थं वा आगताः इति अविचिन्त्य सन्तोषेण तेषां स्वागतादिकम् इत्यर्थः. अतः किं व्रतं सम्भ्रमविधिः कस्य विषये सम्भ्रमविधिः गृहमुपगते. सो सदनं प्राप्तानाम् अतिथीनां विषये पुनः किं व्रतं
प्रियं कृत्वा मौनम्
मौनम् मौनम् अकथनम्. कदा मौनं प्रियं कृत्वा. सो अन्येभ्यः उपकारं कृत्वा तद्विषये न कथयन्ति इत्युक्ते अहम् एवं कृतवान् एतावत् दत्तवान् इति न कथ्यते. तत्
कुत्र कथनं सदसि
पुनः तदेव किं व्रतं कथनं. कथनं नाम वचनं. कस्य वचनम् उपकृतेः. उपकृतेः नाम उपकारस्य प्राप्तस्य उपकारस्य. यदा सज्जनाः अन्येभ्यः उपकारं कुर्वन्ति तद्विषये मौनं. किन्तु उपकृतेः अन्यैः कृतस्य उपकारस्य कथनं वचनं तत् बहु सर्वत्र उक्त्वा स्मरन्ति. सो कुत्र कथनं सदसि सभायां. सो सभायाम् उपकृतेः कथनम्. अग्रे किं व्रतम्
लक्ष्म्यां.
लक्ष्म्यां किं व्रतं किं तत्र
अनुत्सेकः.
अनुत्सेकः अनुत्सेकः इत्युक्ते
सम्पत्तिभिः गर्वः न भवन्ति.
गर्वः न उत्सेकः इत्युक्ते गर्वः. अनुत्सेकः गर्वस्य अभावः. सो गर्वाभावः कुत्र लक्ष्म्यां सम्पत्तौ. यदा सम्पत् लभ्यते तदा गर्वः गर्वं न कुर्वन्ति इत्यर्थः.
अनन्तरं काः व्रताः व्रताः
परकथाः. परेषां विषये कथनं. कीदृश्यः परकथाः. निरभिभवसाराः. अभिभवः नाम दूषणं. सो दूषणं न कुर्वन्ति. सामान्यतः अन्येषां विषये यदा वदामः यदा ते न सन्ति तदा बिहैण्ड् द बेक् दूषणमेव भवति. किन्तु निर्दूषण परं अन्येषां विषये कथनम्. सो ते यदा न सन्ति तदा अपि दूषणम् अकृत्वा तेषां विषये कथनम्. एतत् सर्वमपि विषमम् असिधारा व्रतम् इत्यर्थः.
ओके. अन्वयः प्रच्छन्नं प्रदानं गृहम् उपगते सम्भ्रमविधिः प्रियं कृत्वा मौनं सदसि उपकृतेः कथनं न अपि लक्ष्म्याम् अनुत्सेकः परकथाः निरभिभवसाराः विषमम् इदम् असिदाराव्रतं सतां केन उद्दिष्टम्?
उद्दिष्टं सम्यक्, अन्वयः सम्यक् अस्ति.
तात्पर्यः यः दानं कृत्वा कर्तनं न करोति, यः अतिथये अतिथिसत्कारं करोति, यः परोपकारं कृत्वा तूष्णीं भवति, यः साहाय्यकृतेः सभायां प्रकटनं करोति, यः सम्पत्तिभिः गर्वः न भवति, यः परः
न भवति,
यः परनराणाम् उल्लापयनम् एवरिथिङ्ग् उल्लापयनं न करोति च, सः सज्जनः सः सज्जनः केन तीव्रं पालिकाम् इव एतेषां विभिन्नगुणाः कथितम् इति कोऽपि न जानाति.
एतादृशेभ्यः सज्जनेभ्यः केन वा एतत् इत्युक्ते एतत् सर्वमपि विषमम् अतिधारा व्रतं खड्गस्य उपरि चलनमिव एतेषाम् आचरणं बहु कठिनं. सो सज्जनेभ्यः एतादृशाः गुणाः केन पाठिताः इति कोऽपि न जातम् इत्युक्ते स्वभावसिद्धमेव भवति इत्यर्थः. केन उद्दिष्टम् इति प्रश्नस्य तात्पर्यं भवति केनापि न उद्दिष्टं, स्वभावतः एव सज्जनाः एतादृशाः भवन्ति इत्यर्थः.
व्याकरणांशः प्रधानं तारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनं प्रच्छन्नं कारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनं गृहं कारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनं उपगते कारान्तः पुल्लिङ्गः सप्तमी विभक्ति एकवचनं सम्भ्रमविधिः कारान्तः पुल्लिङ्गः प्रथमाविभक्ति एकवचनं प्रियम् अकारान्तः नपुंसकलिङ्गः द्वितीया विभक्ति एकवचनं कृत्वा स्वान्तम् अभयं मौनं अकारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनं सदसि सकारान्तः पुल्लिङ्गः सप्तमी सकारान्तः
नपुंसकलिङ्गः
नपुंसकलिङ्गः सप्तमी विभक्ति एकवचनं कथनम् अकारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनं च अव्ययम् अपि अव्ययम् उपकृतेः अकारान्तः पुल्लिङ्गः
इकारान्तः स्त्रीलिङ्गः उपकृतिः यथा मति शब्दः तथा उपकृतिः उपकृतेः मतेः इकारान्तः स्त्रीलिङ्गः षष्ठी विभक्तिः एकवचनम्
अनुत्सेकः अकारान्तः पुल्लिङ्गः प्रथमाविभक्ति एकवचनं लक्ष्म्याम् ईकारान्तः स्त्रीलिङ्गः सप्तमीविभक्ति एकवचनं निरभिभवसाराः आकारान्तः पुल्लिङ्ग
स्त्रीलिङ्गः
स्त्रीलिङ्गः द्वितीया विभक्ति
एकवचनं
बहुवचनं परकथाः आकारान्तः स्त्रीलिङ्गः प्रथमाविभक्ति बहुवचनं सतां सकारान्तः पुल्लिङ्गः षष्ठी विभक्ति बहुवचनं केन मकारान्तः पुल्लिङ्गः तृतीया विभक्ति एकवचनं उद्दृष्टम् अकारान्त नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनं विषमम् अकारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनम् असिधाराव्रतम् अकारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनम् इदम् मकारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनम्
अत्रापि सन्देहाः सन्ति कथयामि. सो विभक्तिः ओके सो गृहम् इति द्वितीया, उपगते इति सप्तमी, प्रियम् इति द्वितीया, सदसि सप्तमी, उपकृतेः षष्ठी, लक्ष्म्याम् इति सप्तमी. सो अन्यत् सर्वमपि प्रथमा विभक्तिः, प्रथमतिसृषु पङ्क्तिषु. सो विषमम् असिधाराव्रतम् उद्दिष्टं सर्वमपि प्रथम. सताम् इति षष्ठी, केन इति तृतीया. अस्तु, अन्ये प्रश्नाः सन्ति. प्रच्छन्नम्, प्रच्छन्नम् इति क्तप्रत्ययान्तं पदम्. प्रच्छन्न छन्नं नाम आच्छन्नं, दट् विच् इस् कवर्ड् इत्यर्थः. कीदृशं प्रधानं प्रच्छन्नं, गुप्तम् इत्यर्थः. क्तप्रत्ययान्तशब्दः प्रधानम् इत्यस्य विशेषणम्, अतः अकारान्तः नपुंसकलिङ्गः. अन्तिमं वाक्यं कर्मणि किल इति प्रश्नः. आम्, सतां केन उद्दिष्टम्, सो बै हूम् वास् इट् थाट् इति कर्मणि प्रयोगः. सत्यम्, इदं वसिधाराव्रतं सतां केन उद्दिष्टम्, के इदम् असि, इमम् असिधाराव्रतम्, इदम् असिधाराव्रतं सताम् उद्दिष्टवन्तः इति कर्तरि भवितुमर्हति. सो अन्येषां प्रश्नाः सन्ति वा? एनिबडि एल्स् हेस् एनी क्वश्चन्स् रिगार्डिङ्ग् दिस्? यु केन् रेज् युवर् हेण्ड् इफ् यु वाण्ट् टु आस्क् आर् टैप् इट् औट्. प्रच्छन्नम् इत्यत्र सन्धिः न भवति वा? कुत्र सन्धिः, कस्मिन् शब्दे सन्धिः?
भगिनि नमस्ते.
कुत्र सन्धिः?
प्रच्छन्न प्रत् प्लस्
न प्रच्छन्न, तत्र छकारे परे तुगागमः इत्यस्ति. सो तुगागमः भवति प्रच्छन्न. प्रच्छन्न इति प्र इति उपसर्गः, छन्नम् इति धातोः रूपं. सो प्र प्लस् छन्न, तत्र तुगागमः भवति प्रत् छन्न, तदनन्तरं तस्य श्चुत्वेन सकारः प्रच्छन्न इति भवति.
अस्तु.
Lata, Bhagini?
Is this type of question comes in, Bhagini, is the, like, you know, giving any Subhashitam, will they ask Anvaya Rachana in the exam? This is very difficult for the second one, especially was very difficult.
No, I don't know. I haven't seen the recent papers, how they do it.
Okay.
I mean, I think with practice you'll get it, don't worry. I mean, there is nothing in this shloka especially, it is all prathama, there is no anvaya at all. It's actually a very, I gave it thinking there is nothing in this shloka. The I only anvaya part comes in the last, this one. So everywhere else there is no this one. When there are things in prathama, it is always just enumeration. Wherever you have, like you have dhritihi, chama, damosteyam, viswadashakam, dharma, lakshanam. तादृशाः बहवः श्लोकाः भवन्ति. सो इट् इस् जस्ट् अ लिस्ट् आफ् थिङ्ग्स् एण्ड् फैनली देर् विल् बि जस्ट् वन् वाक्य कनेक्टिङ्ग् इट्.
ओके.
स्पेशलि फार् द पर्पस् आफ् द एक्साम् तत्र तु चिन्ता करणीया एव नास्ति. तत्र सामान्यतः उक्त्वा तस्य अर्थः लेखनीयः. सामान्यतः क्रियते चेत् अलं, चिन्ता नास्ति. तत्र मध्ये किञ्चित् अत्र तत्र भवति चेत् अर्थे यावता भेदः नास्ति तावत् युज्यते एव, क्लेशः नास्ति. अभ्यासः कस्य अर्थः? ओके, सुलोचन प्रश्नः अस्ति वा? Sulochana Bhagini, you have to unmute yourself if you have a question.
Vishyama Masithara Vridhanidhan. Will you please explain this word now?
विषमम् असिधाराव्रतम् इदम् इदं नाम पूर्वत्र यद्यत् कथितं तत्सर्वमपि व्रतम्। कीदृशं व्रतम्? असिधारा, असिः इत्युक्ते खड्गः, स्वोर्ड्, असिधारा, असेः धारा, धारा नाम अग्रभागः, द एड्ज् आफ् द स्वोर्ड्। सो यदि असेः धारायां चलनीयं, सो वाकिङ्ग् आन् द एड्ज् आफ् अ स्वोर्ड्, तत् बहु कठिनं किल, तादृशमेव विषमं बहु कठिनम् इदं व्रतं। पूर्वत्र यद्यदुक्तं तत्सर्वमपि वस्तुतः आचरितुं बहु कठिनं, तथापि सज्जनाः एतत् कुर्वन्ति। केन उद्दिष्टं? केन वा ते उपदिष्टाः इति कविः वदति, अर्थात् स्वभावतः एव सज्जनाः एतत् सर्वं कुर्वन्ति इत्यर्थः, न कोऽपि आगत्य उपदिशति, तस्य कथनम्। पूर्णः अर्थः केनचित् पृष्टः, तो तदेव इदम् असिधारा व्रतं, पूर्वं यद्यत् कथितं, प्रदानं प्रच्छन्नं, सो प्रच्छन्नं प्रदानं, गुप्ततया दानं। वयं सर्वे सामान्यतः दानं क्रियते चेत् किं क्रियते? तत्र बोर्ड् सर्वत्र भवति, ओके एतद् अनेन दानं कृतं, तदपि सर्वेषां मनसि भवति, यद्दत्तं तस्य कृते किञ्चित् अभिज्ञानं, रेकग्निशन् फार् चारिटि, इट् इस् अ वेरि नेचुरल् अर्ज् इन् पीपल्, बट् तद्विना गिविङ्ग् charity or doing charity in without advertisement, prachannam guptam, so it does not mean secretly, etyukte tatra secret idi kinatina, kintu sarvatra tadvishaye pracharam vina danam kriyate iti ekam, griham upagate samhama vidhihi, yakopi anirikshitataya griham agacchati che, केऽपि अतिथयः आगच्छन्ति चेत् सम्भ्रमविधिः, अत्यन्तं सन्तोषेण तेषाम् आतिथ्यकरणं, सो रिसीविङ्ग् गेस्ट्स् वित् हेपिनेस्, वित् रियल् एन्थूसियाज़म्, नाट् थिङ्किङ्ग् दट् दे आर् एन् आब्स्टेकल् टु अवर् डेली रुटीन्, सो गृहम् उपगते सम्भ्रमविधिः, प्रियं कृत्वा मौनं, सो अन्येभ्यः उपकारं कृत्वा मौनं, सो दिस् इस् सिमिलर् टु प्रीवियस्, the first one is just a donation, this is doing anything which helps others and keeping quiet about it, not reminding them at every step that okay I did this for you, I did this for you. Sadasi kathanam upakritehe, kintu anye tesham sajjananam sahayam kurvanti chet, sadasi nama sabhayam kathanam, so openly acknowledging the help which was received. So, yada etad upakaraha bhavati, tat kena vaktavyam ityukte yaha upakaram prapnoti saha vadet, natu yaha upakaram karoti. So, you have to keep quiet about what you have done, but again you should not keep quiet about what others have done. You should openly acknowledge the help that has been received. Lakshmyam anutsekaha. सो सम्पत्तौ गर्वस्य अभावः, यदा धनं भवति तत्र गर्वः न भवति। परकथाः निरभिभवसाराः, सो अपमाननं न कुर्वन्ति, अन्येषां विषये यत् सम्भाषणं क्रियते, सो नान् इन्सल्टिङ्ग् टाक् अबौट् अदर्स् बिहैण्ड् देर् बेक्, सो अभिभवः नाम तिरस्कारः इत्यर्थः। So we usually put people down when we are talking about them, when they are not there. Right? So, tat na kurvanti. Etat sarvam api sajjanaha kurvanti. Etadrisham bahu kathinam khadgasya agre chalana sadrisham vratam sajjanebhyaha kena upadishtam. Nama svabhavataha eva te etadrishaha bhavanti ityarthaha. Any other question in this shloka? महेश्वरी भगिनी प्रश्नः अस्ति वा?
नास्ति भगिनि, इदानीम् अहं केच् अप् करोमि.
सम्भ्रमविधिः इत्यत्र सम्भ्रम नाम आङ्ग्लभाषायां कन्फ्यूजन् इति उच्यते किल. सम्भ्रमः भ्रम सम्यक् भ्रमः
उभयथा अपि अर्थः अस्ति. अत्र तु सम्भ्रमः इति सामान्यतः यदा उपयुज्यते सः अर्थः अस्ति, किन्तु अत्र इन् दिस् काण्टेक्स्ट् इट् इस् द सम्भ्रम विच् इस् मोर् ऐ मीन् यु आर् वेरि ईगर् अण्ड् एन्थूसियास्टिक्. सो एक्चुअलि ऐ मीन् वस्तुतः स एव अर्थः, यु आर् सो हेपी दट् यु डोण्ट् नो वाट् टु डु, नेचुरलि हेपी दट् यु आर् लास्ट् फार् वर्ड्स् आर् लास्ट् फार् एक्शन्स् वाट् इस् टु बि डन्. So you show such enthusiasm for this.
Nama utsahasya paryayavachi kathasam shakyate kim? Sambhramah.
Asmin prasange tadashaha arthaha sikartum shakyate. Utsahena santoshena atithinam satkaraha iti. So it is of course a contextual meaning.
Okay, dhanyavad.
Astu, so agrima vargartham, so again, so agre subhashitani prayena dirghani eva bhavanti, kintu dirghaihi subhashitaihi bhetavyam nasti. मन्दं कुर्मः चेत् वाक्यं वाक्यं स्वीकृत्य कुर्मः चेत् निश्चयेन शक्यते. अत्रापि चत्वारि वाक्यानि सन्ति. एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्यये सामान्यास्तु परार्थम् उद्यमभृतः स्वार्थाविरोधेन ये तेमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे. सो सत्पुरुषाः वाट् हू आर् द गुड् आर् नोबल् मेन् स्वार्थान् परित्यज्य परार्थघटकाः. स्वार्थः नश्यति चेदपि परार्थं साधयन्ति. दे हेल्प् अदर्स् इवन् वेन् इवन् पुट्टिङ्ग् देम्सेल्स् अण्डर् ट्रबल्. सामान्यास्तु सामान्यजनाः किं कुर्वन्ति? स्वार्थ अविरोधेन, स्वार्थः इत्युक्ते स्वस्य कार्यं न नश्येत् परार्थम् उद्यमभृतः. सो यावत्पर्यन्तं स्वस्य आत्मनः क्लेशः न भवति तावत्पर्यन्तम् अन्येषां साहाय्यं कुर्वन्ति. कामन् पीपल् दट्स् वाट् पीपल् नार्मली डु. एस् लाङ्ग् एस् इट् डजन्ट् हर्ट् देम् दे आर् ओपन् टु हेल्पिङ्ग् अदर्स्. तेमी मानुष राक्षसाः परहितं स्वार्थाय निघ्नन्ति ये. दोस् हू hurt parahita, so harm others for their swartha, te manusha rakshasaha, they are definitely rakshasas on this earth. Okay. Ye tu ghananti nirarthakam parahitam, but there are those who are a step ahead. Nirarthakam parahitam ghananti, without any purpose they harm others. So there are those which harm others for their selfish motives. They themselves are manusha rakshasaha. Yetu ghananti nirarthakam parahitam. So without any cause, the sadistic mindset. So te ke na jani mahe. So we don't even know what to call them. So four levels of people. क्वचित् पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः क्वचित् शाकाहारः क्वचिदपि च शाल्योदनरुचिः क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरः मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्. कार्यार्थी यः कार्यं साधयितुम् इच्छति, मनस्वी धीरः, सो तादृशः सः दुःखं न गणयति सुखमपि न गणयति. सो हि डस् नाट् केर् फार् प्लेजर्स् आर् पेन्. अत एव क्वचित् पृथ्वीशय्यः, समटैम्स् हि स्लीप्स् आन् द अर्थ् बेर् अर्थ्. क्वचिदपि च पर्यङ्कशयनः, समटैम्स् आन् अ वेरि साफ्ट् बेड्. क्वचित् शाकाहारः sometimes he gets only some raw fruits or vegetables क्वचिरपि च शाल्योदनरुचिः sometimes a very well cooked meal शाल्योदन is very high quality rice okay good meal a very good meal क्वचित् कंथाधारि sometimes he wears only ragged cloth क्वचिदपि च दिव्यांबरधरः and sometimes in divine cloth either way manasvi karyarthi dukham na ganayati sukham api na ganayati ityarthah so shloka dvayasya anvaye prayatnam kurvantu agrima varge charcha ankurmah adya visarga sandhehe utva sandhehe abhyasah krutah visarga sandhihi lopah iti padameva luptamasti लोपसन्धेः नियमाः ज्ञाताः सुभाषितद्वयं ज्ञातवन्तः अग्रिमः वर्गः अक्टोबर् मासस्य सप्तविंशतौ भवति एण्ड् वन् इम्पार्टेण्ट् अनौन्स्मेण्ट् अत्र बहूनां वर्गाणां लोपः अभूत् वि हेव् लास्ट् क्वैट् अ फ्यू क्लासस् अपि च केषाञ्चन परीक्षाः सन्नद्धाः इति कथयन्ति सो अतः अग्रिमसप्ताहादारभ्य दिनद्वयं वर्गं कुर्मः शनिवासरे भानुवासरे च सो सेम् टैम् सो साटर्डे एण्ड् सण्डे सो प्रायः सप्ताहत्रये परीक्षायाः सर्वान् अंशान् पूरयितुं प्रयत्नं कुर्मः ओके सो फ्रम् नेक्स्ट् वीक् वी विल् हाव् क्लास् आन् साटर्डे एण्ड् सण्डे two classes per week and we'll try to complete it in 3 weeks probably 6 or 7 more classes is what is my estimate
okay
okay we will stop here gururev gatihi gurumeva bhaje gurunaiva sahasmi namo gurave न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो धन्यवादः